युवस्तीरस्य परिमा विवप्रथयन् कर्णबन्धा पृथिवी जनः प्रति देवस्य पुष्पाञ्चर्भ्यः आदमस्यजी देवज्रम् तेजसेन वंसकः सोऽर्णमवो न नद्यः समुद्रयः प्रति गृह्णाति विश्रीधावरीमभिः इन्द्रस्तोमस्य पीतये मृगायते धनात्स युद्धमोदसापनस्य ते तन्दमिन्द्रपर्व तन्न भोजते महो नम्नस्य सन्मानाभिरज्यसि प्रवीर्येण देवताति चेति देविस्तस्मा पुत्रः कर्मणे पुरोहीतः स युद्ध्वमेन अस्युभिर्वचस्य ते चानुजनेण प्रब्रुभाणयन्द्रियम् मृषाचन्दुर्भवति अर्यतो मृषाक्षेमेण धेनाम् मघवाजिलिम्बानि सरिन्मानि समिधानि मद्मना कृणोति युध्मवोजधाजनेभ्यः अधाजनश्रद्धादधित्युटीमदयिन्द्राय वज्रम् निघनिघ्रदे वधाम् सगिष्णवस्य सुजानानि कृत्रिमाक्षयामृधानवोजासा विनाशयन् ज्योतिर्गृह्णन्न मृगायज्यमेव शुक्लश्चत्तमा अपसृजते ज्ञानायमनस्तोमवामन्नस्तु नेर्वाञ्जाहरीवन्दनस्तु नागृधि चकृष्टादस्तारादयो इन्द्रजेन त्वागेदादभ्रमन्ति भूर्णायः अप्रक्षितम् वसो विवर्णहस्तायोरुषाधम् दहस्तन्विस्तृतो दधे आवेदासो मदासो न कर्तृभिस्तनोरुदे कृतावयन्द्रभूरायः